इयं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्य वार्ताः। भारत वियतनाम देशौ व्यापकं रणनीतिक सहभागित्वं इतोपि सुदृढीकर्तुं द्विपक्षीय वार्तां विहितवन्तौ। केरलस्य वायनाड जनपदे दुरापन्ने भूस्खलन प्रकरणे अन्वेषणाभियानं साम्प्रतमपि प्रचलति। मृतकानां संख्या षष्ट्यधिक द्विशतं जाता। सर्वोच्च न्यायालयेन अनुसूचित जाति अनुसूचित जनजाति वर्गयोः अन्तर्गतं उपश्रेण्याः अनुमति सम्बद्धे प्रकरणे निर्णयः श्रावितः। भारतेन श्रीलंका देशस्य कच्चातीवो द्वीपस्य उत्तरे भारतीय मत्स्य मारकाणां नौकया साकं संघटनानन्तरं अद्य श्रीलंकायाः राजदूतः समाकारितः। अपि च पेरिस क्रीडा महाकुंभे लक्ष्य वेधकः स्वप्निल कुसालेः भारताय तृतीयं कांस्य पदकं विजितवान्। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदेहलीनगरे वियतनामदेशीयेन स्वीय समकक्षीयेन फा मिन चिन इत्यनेन सह वार्तालापः साधितः। स्ववार्ताहर सम्भाषणे प्रधानमन्त्रिणा नरेन्द्रमोदिना अभिव्यक्तं यत् भारत वियतनाम देशयोः सम्बद्धः विस्तृतः सुदृढः च जातः, तथा च गतदशवर्षाणां सम्बन्धेभ्यः समग्र सामरिक सहभागित्वस्य आकारः अपि दत्तः। वार्तायाः अनन्तरम् उभौ नेतारौ वियतनामदेशस्य नाट्रांग नगरे दूरसंचार विश्वविद्यालये सेनातन्त्रांश उद्यानम् उद्घाटितवन्तौ। इयं भारतवियतनाम देशयोः पारस्परिक परियोजनास्ति। परियोजनायाः कृते भारतेन पञ्चलक्ष डॉलरमितस्य राशिसाहाय्यं प्रदत्तम्। उभौ देशौ सीमाशुल्क क्षमतानिर्माण कृषि अनुसंधान शिक्षा सागरीय परम्परौषधीय वनस्पति विधिक्षेत्रेषु सहयोगाय सहभागिता ज्ञापनपत्रे हस्ताक्षरं कृत्वा आदान प्रदानम् अकुरुताम्। प्रसारभारती वॉइस ऑफ वियतनाम इति च श्रव्यांक दृश्यांकनयोः सहकारार्थं सहभागिता ज्ञापनपत्रस्य आदान प्रदानमपि जातम्। प्रधानमन्त्री श्री चिन्हः अद्य राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया उपराष्ट्रपतिना च जगदीप धनखडेन सह मेलनं करिष्यति। केरलस्य वायनाड जनपदे दुरापन्ने भूस्खलन प्रकरणे शवानां विलुप्त जनानां च अन्वेषणाभियानं साम्प्रतमपि प्रचलति। ध्येयमस्ति यत् तत्र नैके जनाः पञ्चतां प्राप्ताः आसन्, येषु साम्प्रतं यावत् षष्ट्युत्तर द्विशतमिताः जनाः मृताः इति सूच्यन्ते। सुरक्षोद्धारकर्मिभिः भूभ्यन्तरवर्तिनः नैके शवाः भूस्खलनस्थलात् अधिगताः सन्ति। अधिगतेषु शवेषु नवनवतिमिताः शवाः अधुनापि अनभिज्ञाताः सन्ति। मृतकानां संख्या अतोपि वर्धिष्यते इति सम्भाव्यते। आधिकारिक स्रोतांसि सूचयन्ति यत् अस्यां दुर्घटनायां व्रणिताः नैके जनाः विभिन्नेषु चिकित्सालयेषु उपचाराधीनाः वर्तन्ते। ध्वंसावशेषु निरुद्धानां जनानाम् उद्धाराय अधुना अपि आपद्मोचनबलानि राज्यसर्वाकारस्य विभागाः जनता च पूर्णतो दृशा प्रयासपराः सन्ति। भारतस्य मुख्यन्यायाधीशस्य डीवाई चन्द्रचूडस्य नेतृत्वे सर्वोच्चन्यायालये सप्त न्यायाधीशानाम् एकेन पीठेन अद्य बहुमतेन राज्यविधानमण्डलद्वारा अनुसूचितजाति अनुसूचितजनजाति वर्गयोः अन्तर्गतम् उपश्रेण्याः अनुमति सम्बद्धे प्रकरणे निजनिर्णयः श्रावितः। सर्वोच्चन्यायालयेन चतुरधिकद्विसहस्रतमवर्षस्य ईवी चिन्नय्या इत्येतस्य निजनिर्णये प्रतिपादितम् आसीत् यत् अनुसूचितजनजातिवर्गस्य आरक्षणस्य उपश्रेण्याः विभाजनं रिक्तेषु सर्वकारीयवृत्तेषु च स्वीकार्यं नास्ति। प्रशासनेन अद्य सबलं प्रत्यपादितं यत् प्रशासनं देशे रेलदुर्घटनाः रोद्धुं प्रतिबद्धं वर्तते। अपि च यूपीए इत्यस्य प्रशासनस्य अपेक्षायां दुर्घटनानां संख्यायां अष्टषष्टिः प्रतिशतं यावत् न्यूनतापि आगता। लोकसभायां स्वीय मन्त्रालयस्य अनुदानाभ्यर्थने सच्चर्चायाः एकस्याः उत्तरं यच्छन् केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् यूपीए प्रशासनावधौ प्रतिवर्षं दुर्घटनानां वार्षिकी संख्या 170,000 आसीत्। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री सहज बिजली हर घर योजनायाः सौभाग्य इत्यस्याः अन्तर्गतं देशस्य आहत्य 86,00,000+ गृहेभ्यः विद्युत् सौविध्यं प्रदत्तम्। अद्य लोकसभायाम् एकस्मिन् लिखितोत्तरे विद्युत् राज्यमन्त्री श्रीपदनायकः सूचितवान् यत् प्रशासनेन देशे सार्वभौमिक स्वदैशिक विद्युतीकरण लक्ष्यम् अधिगन्तुं 17,000+ वर्षे योजनेयं समारब्धा। सौभाग्य योजनायाः माध्यमेन कोटिशः गृहाणि विद्युत् सम्पर्कं प्राप्तानि सन्ति। विधि न्याय मंत्री अर्जुन राम मेघवालः अद्य राज्यसभायां सूचितं यत् देशस्य उच्च न्यायालयेषु न्यायाधीशानां 59,300 रिक्तपदानि सन्ति। राज्यसभायां लिखितोत्तरे मंत्री अकथयत् यत् प्रवर्तमान रिक्तीनां प्रपूरणाय शीघ्रतया सर्वविध प्रयासाः क्रियन्ते। जनपद न्यायालयेषु च रिक्तपदानां पूरण प्रक्रिया उच्च न्यायालयानां राज्य प्रशासनस्य च कर्तव्यमस्तीति। भारतेन श्रीलंका देशस्य नौसैन्यबलस्य जलपोतस्य कच्चातीवु द्वीपस्य उत्तरे भारतीय मत्स्य मार्गाणां नौकया साकं संघट्टनानन्तरं एकस्य भारतीय मत्स्य मार्गस्य संजात मृत्यु प्रकरणे अद्य श्रीलंकायाः राजदूतः समाकारितः। विदेश मन्त्रालयेन प्रतिपादितं यत् नवदिल्ल्यां श्रीलंका देशस्य कार्यवाहकं उच्चायुक्तं आहूय प्रातरेव विदेश मन्त्रालयेन विरोधः पञ्जीकृतः। मन्त्रालयेन प्रोक्तं यत् कोलंबो नगर्यां भारतीयः उच्चायुक्तः अद्य अस्मिन् प्रकरणे श्रीलंका सर्वकारस्य पुरतः नैजं विरोध वक्तव्यं उपस्थापयिष्यति। मन्त्रालयेन एतदपि प्रोक्तं यत् भारत सर्वकारेण सर्वदैव मत्स्य मारणरतानां धीवराणां प्रकरणेषु मानवीय पद्धत्या निदानस्य आवश्यकतायां बलं प्रदीयते। अद्य अस्मिन् विषये पक्षद्वयेनापि सशक्तया अस्यानुपालनम् आचरणीयं येन पुनः एतादृशी घटना नैव दुर्घटेत। भारतर्तु विज्ञान विभागेन कल्पितं यत् सम्पूर्णे राष्ट्रे दक्षिण पश्चिमीय प्राविट ऋतोः द्वितीय भागावधौ वृष्टिः भविष्यति। ऋतुविभागेन उत्तरपूर्वीय भारते लद्दाखे सौराष्ट्रे कच्छ क्षेत्रे सामान्य वृष्टितः अतिवृष्टिः अनुमानिता। अत्रावधौ ह्यः रात्रौ राष्ट्रिय राजधान्यां दिल्ल्यां महती वृष्टिः जाता। अस्य मासस्य 5 दिनांकं यावत् दिल्ल्यां मध्यमस्तरीय वृष्टिः अपि सम्भाविता। पेरिस क्रीडा महाकुम्भे लक्ष्यवेधकः स्वप्निलः कुसालेः पुरुषाणां 50 मीटर राइफल थ्री पोजिशन इत शूटिंग इति स्पर्धायां भारताय तृतीयं कांस्यपदकं विजितवान्। पुरुषाणां 50 मीटर राइफल थ्री पोजिशन शूटिंग योग्यतार्जन स्पर्धायां कुसालेः सप्तमे स्थाने स्थित्वा अन्त्यद्वन्द्वे स्थानम् अधिगतवान्। महिलानां 50 मीटर राइफल थ्री पोजिशन इति द्वन्द्वे सिप्त कौरः अमरा अंजुम मौद्गिलश्च समहरता चक्रे भारतीय समयानुसारेण अद्य अपहराणे 3:30 निज क्रीडाभियाने निरते वर्तेते। अत्रावसरे प्रधानमन्त्री श्रीनरेन्द्रमोदी कांस्यपदकस्य विजयम् अभिलक्ष्य स्वप्निलः कुसालेः इत्यस्मै मंगलवचोभिः वर्धापनानि प्रदत्तवान्। एकस्मिन् सामाजिक सञ्जाले प्रेषिते सन्देशे श्रीमोदी अलिखत् यत् तस्य क्रीडा प्रदर्शनम् उत्कृष्टं विशिष्टं च वर्तते यतोहि तेन अद्भुतं क्रीडा कौशलं प्रदर्शितम्। अनेन पदकार्जनेन समस्ते भारते प्रसन्नतायाः लहरी वर्तते। इति वार्ताः।